ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतम् दिव्यान्नं घृतसूपशाकभरितम् चित्रान्नभेदं तथा दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितम् माशापूपसहस्रम् अम्बसफलम् नैवेद्यमावेदये सच्चायैर्वरकेतकीदळरुच ताम्बूलवल्लीदळैः पूगैर्भूरिगुणैर्सुगन्धिमधुरैः कर्पूरकण्ठोज्ज्वलैः मुक्ताचूर्णविराजितैर्बहुविधैः वक्त्राम्बुजमोदनैः पूर्णारत्नकलाचिका तव मुदे न्यस्तपुरस्तादु मे कन्याभिः कमनीयकान्तिभिः अलङ्कारमलारार्तिका पात्रे मौक्तिकचित्रपङ्क्तिविलसत् कर्पूरदीपालिभिः तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्बोरुहम् मन्त्राराधनपूर्वकं सुविहितं निराजनं गृह्यताम् लक्ष्मीमूक्तिकलक्षकल्पितसितश्छत्रं तु धत्ते रसात् इन्द्राणि च रतिश्च चामरवरे दत्ते स्वयं भारती वीणां येण विलोचना सुमनसां नृत्यन्ति तद्रागवत् भावैरङ्गिकसात्विकै स्फुटरसं मातस्तदा कर्ण्यता ह्रीङ्कारत्रयसम्पुटेन मनुना उपास्येत्रयी मौलिभिः वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वाक्षमेताम्बिके सल्लापास्तुतयः प्रदक्षिणशतं सञ्चारयवास्तु ते संवेशो नमसः सहस्रमखिलम् त्वत्प्रीतये कल्पत श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्छेतसा सन्ध्यासु प्रतिवासरं सुनियतः तस्य अमलं स्यान्मनः चित्ताम्बोरुहमण्टपे गिरिसुतां नृत्तं विधत्ते रसात् माणी वक्त्र सरोरुहे जलधिज गेहे जगन्मङ्गला इति गिरिवरपुत्री पादराजीवभूषा भुवनममलयन्ती सूक्तिसौरभ्यसारी शिवपदमकरन्दस्यन्दिनीयं निबद्धा मदयतु कविभृङ्गा मातृका पुष्पमाला।